यस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचको रामहरि दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति कोरोना विषाणुनाम् संक्रमणस्य निरोधनाय नियन्त्रणाय उपचाराय च सर्वकारेण सर्वे प्रयासाः विधीयन्ते। कोरोना विषाणुनाम् संक्रमणस्य निरोधनस्य नियन्त्रणस्य सम्बन्धे राष्ट्रस्य नाम्नि गतसायं सम्बोधयन् प्रधानमन्त्री ओली अगदत् संक्रमणं रोद्धुम् आराष्ट्रं चिकित्सालयेभ्यः सेवा प्रदीयते, पर्याप्तम् औषधानाम् उपकरणाञ्च प्रबन्धः क्रियते, आवश्यक जनशक्तेः व्यवस्थापन कार्यञ्च उच्च प्राथमिकतायां संस्थापितं वर्तते। प्रधानमन्त्री ओली अभाषत अत्यावश्यकीं सेवां विना अन्यः सर्वः सेवा आगामिनः चैत्रमासस्य नवम दिनांकः चैत्रमासस्य एकविंशतिम् दिवसम् यावत् पिधापिताः सन्ति। प्रधानमन्त्री ओली उदैर्यत् देशवासिनां स्वास्थ्यं सुरक्षाञ्च ध्यात्वा नेपाले प्रवेशकानां सर्वेषाम् अन्तर्राष्ट्रिय वायुसेवायानानाम् उड्डयनम् अस्यैव चैत्रमासस्य नवम दिवसात् अष्टादश दिवसम् यावत् स्थगितीकृतम् वर्तते। सीमा प्रवेश बिन्दुतः प्रविष्टानां यात्रिणां स्वास्थ्य सुरक्षां प्राथमिकतायां ध्यात्वा संक्रमणात् रक्षितुम् अनिवार्य रूपेण स्वास्थ्य परीक्षणस्य व्यवस्थया सह गमनागमनस्य व्यवस्था विधीयते। प्रधानमन्त्री ओली महामार्या सह योद्धुम् सर्वेषाम् कच्चित् समयस्य कृते स्वीय व्यवहारे दैनिक कर्मसु च परिवर्तनम् आवश्यकम् अस्ति, ततः स्वच्छतायाम् उचितम् ध्यानम् दातुम् फेनिलेन भूयो भूयः हस्तौ प्रक्षालयितुम् सम्मर्दात् दूरं स्थातुम् प्रवादात् भ्रान्तः प्रभाविताः च न भवितुम् चिकित्सकानां विज्ञानां प्राविधिकानाञ्च परामर्शान् पालयितुम् आतंकिताः न भवितुञ्च सर्वान् अन्नरुणत्। असौ संक्रान्तेभ्य राष्ट्रेभ्य नेपालम् आगतान् सर्वान् जनान् स्वं स्वीयं परिवारं समुदायञ्च संक्रमणात् रक्षितुम् न्यूनतमम् चतुर्दश दिनानि गृहे पृथक् सुरक्षा कक्षे स्थातुम् अन्नरुणत्। प्रधानमन्त्री ओली अभाषत सार्वजनिक सेवाया प्रवाहाय आवश्यकानां नैजानाम् अन्येषां सर्वविधानाञ्च साधनानां सञ्चालनस्य व्यवस्था विहिता वर्तते। प्रधानमन्त्री ओली नैज क्षेत्रस्यापि सहयोगे खाद्यान्न प्रभृतीनाम् अत्यावश्यकोपभोग्य सामग्रीणां नियमितापूर्तेः व्यवस्था विहितास्ति इत्यतः अस्याम् असहजस्थितौ कृत्रिमाभावं न स्रष्टुम् सर्वान् अन्नरुणत्। प्रधानमन्त्री ओली अवोचत् विश्वव्यापिनः कोरोना विषाणुनाम् संक्रमणस्य महामार्याः समग्रार्थव्यवस्थायां विहितस्य प्रभावस्य सम्बन्धे अर्थमन्त्रालयेन सूक्ष्मम् अध्ययनं विद्यमानं वर्तते। अर्थव्यवस्थायां विहितं प्रभावं सम्भावितप्रभावञ्च विश्लिष्य अर्थतन्त्रे संकोचनं रोद्धुम् सर्वकारेण शीघ्रम् उपयुक्ताः कार्यक्रमाः आनेष्यन्ते। प्रधानमन्त्री ओली देशात् बहिः स्थितान् नेपालिनः अस्मिन् समये त्रस्ता चिन्तिताः च न भवितुम् आवश्यके सति स्वस्थितस्य देशस्य कूटनीतिक नियोगे सम्पर्कम् कर्तुञ्च अनुन्धानः अस्माकम् नियोगै समस्या समाधातुम् यथाशक्यम् सहयोगः करिष्यते इत्यज्ञापयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना कोविड ऊनविंशति विषाणुनाम् सम्बन्धे ह्यो देशवासिनाम् नाम्नि विहितम् सम्बोधनम् क्रियान्वितुम् कोविड ऊनविंशति रोगस्य संक्रमणावरोधनाय नियन्त्रणोच्चस्तरीय समन्वय समित्या निर्देशनम् प्रदत्तम् वर्तते। उपप्रधानमन्त्रिणो रक्षामन्त्रिणश्च संयोजकत्वे संघटिताया समिते ह्यः प्रधानमन्त्री मन्त्रिपरिषद कार्यालये उपविष्टेन उपवेशेन कोविड ऊनविंशति विषाणुनाम् निरोधनाय सर्वकारेण विधातव्यानाम् कार्याणाम् क्रियान्वयन तालिकया सह अग्रे वर्धनार्थम् मुख्य सचिवस्य संयोजकत्वे संघटिताय कार्यदलाय निर्देशनम् प्रदत्तम् अस्ति। प्रधानमन्त्री केपी शर्मा ओली वदति दलित समुदायम् राज्यस्य मूल प्रभावे आनीय आत्मसम्मानेन सह जीवनयापनस्य आधारम् निर्मातुम् न्यायम् सर्वसुलभम् कारयितुञ्च नीति कार्यक्रमाणाम् माध्यमेन सर्वकारः कार्यम् अग्रे वर्धापयिष्यति। पञ्चपञ्चाशत्तमस्य अन्तर्राष्ट्रिय जातीय विभेदोन्मूलन दिवसस्य अवसरे गतदिने सन्देशं प्रेषयता प्रधानमन्त्रिणा ओलिना सर्वप्रकारकाणाम् विभेदानाम् विरोधिनी आन्दोलने अमूल्य जीवनोत्सर्गिणः ज्ञाता ज्ञातान् हुतात्मनः प्रति भावपूर्णः श्रद्धाञ्जलिः अर्पितोऽस्ति। नेपाल भारतयोः परराष्ट्र मन्त्रिणोर्मध्ये गतदिने दूरभाष वार्ता अभवत्। परराष्ट्रमन्त्रिणः प्रदीप कुमार गिमालिनः भारतस्य विदेश मन्त्रिणः सुब्रह्मण्यम् जयशंकरस्य च मध्ये महामार्या रूपेण आविश्वम् प्रसृतस्य कोरोना रोगस्य विरूद्धे योधनस्य उपायन सह पारस्परिक सहयोग वर्धनस्य सम्बन्धे दूरभाष संवादः विहितोऽस्तीति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। केकुवर्तिना शुक्रराज ट्रपिकल संक्रामक रोग चिकित्सालयेन सामान्य रूपस्य प्रतिस्यायस्य ज्वरस्य च रोगीषु आयातेषु सत्सु अपि एकम् जनम् विहाय अधुना यावत् नेपाले अन्यस्मिन् कस्मिन्नपि जने कोविड 29 विषाणुनम संक्रमण प्राप्तम नास्तीति ज्ञापितम वर्तते। चिकित्सालयस्य सूचना अधिकारी रूपनारायण खतिवडा चिकित्सालये प्रतिदिनं 500 संख्यायां प्रतिशयस्य ज्वरस्य च रोगीषु आगतेषु सत्सु अपि कस्मिन्नपि जने कोरोना विषाणुनाम संक्रमण न दृष्टमिति ज्ञापयति। प्रथम प्रदेशस्य सर्वकारण संघीय सर्वकाराय कोविड 19 रोगं प्रति उच्च सावधानताम् अवलम्बितुं भारतेन सह संयोजितान् विराटनगर काकर भित्तातः अन्यान् प्रवेश बिन्दुन् पिधापयितुं च परामृष्टं वर्तते। प्रथम प्रदेशस्य आन्तरिक विषय विधि मन्त्रिणा हिक्मत कुमार कार्की इत्यनेन विराटनगर महानगरपालिकाया 88 क्षेत्र स्थिति बुधनगरे स्थापितस्य एकीकृत प्रवेश शुल्क परीक्षण केन्द्रस्य अनुगमनस्य निरीक्षणस्य च अनन्तरं पत्रकारै सह भाषमाणेन प्रदेशान्तर्गतं भारतेन सह सम्पृक्तान् द्वयो इतरान् सर्वान् लघु प्रवेश बिन्दुन् पिधापयितुं परामृष्टम् अस्तीति ज्ञापितम्। स्वास्थ्य जनसंख्या मन्त्रालयेन काष्ठमण्डप उपत्यकाया 50 ततोपि अधिकानां वा शय्यानां चिकित्सालया अत्यावश्यक सेवां विना अन्यानि स्वास्थ्य परीक्षण शल्यक्रिया सम्बद्ध सेवाञ्च पिधापयितुं निर्देष्टा वर्तन्ते इति समाचारः।